इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य कर्णाटकस्य एकदिवसीय यात्रायै गमिष्यति। अत्रावसरे श्रीमोदी बेंगलुरुनगरस्य केएसआर रेलस्थानके त्रिभ्यः वन्दे भारत द्रुत रेलयानेभ्यः हरितध्वजं प्रदर्शयिष्यति। अवधेयास्पदमिदं यत् एतेषु रेलयानेषु बेंगलुरुतः बेलगामं यावत्, अमृतसरात् माता वैष्णोदेवी कटरां यावत्, तथैव नागपुरतः पुणे नगरं यावत् गम्यमानानि रेलयानानि सन्ति। अतः परं सः बेंगलुरुनगरे मेट्रोयानस्य येलो लाइन इति पीतवर्णीय रेखायै हरितपताकां प्रदर्शयिष्यति। श्रीमोदी आरवी रोड रागीगुड्डातः इलेक्ट्रॉनिक सिटी मेट्रोस्थानकं यावत् यात्रापि करिष्यति। प्रधानमन्त्री बेंगलुरुनगरे नगरीय सम्पर्क परियोजनानाम् उद्घाटनं शिलान्यासञ्च विधाय एकां सार्वजनिक सभामपि सम्बोधयिष्यति। श्रीमोदी दशाधिकषड्शतोत्तर पञ्चदशसहस्रकोटिरुप्यतोऽप्यधिकानां बेंगलुरु मेट्रो यानस्य तृतीयचरणस्य परियोजनानां आधारशिलां स्थापयिष्यति। दक्षिणपश्चिम रेलविभागस्य महाप्रबन्धकेन मुकुलचन्द्र माथुर इत्यनेन उक्तं यत् हाईस्पीड वन्दे भारत रेलयानं क्षेत्रीयसम्पर्कं संवर्धयिष्यति।
रहेगा इंटरसिटी ट्रैवल के लिए, जो आम आदमी को दृष्टि में रखते हुए अमृत भारत ट्रेन्स है, उसकी भी लॉन्च हो रही है। हम लोग वंदे भारत स्लीपर भी लॉन्च करने जा रहे हैं। धीमे धीमे एक बहुत इंपॉर्टेंट फ्यूचर के प्रोडक्ट हो जाएंगे और 2030 तक लगभग जो वंदे भारत के प्रोडक्शन है उसमें काफी इजाफा होगा।
निर्वाचन आयोगेन उक्तम यत् चतुस्त्रिंशोत्तर त्रिशतम यावत् पंजीकृतानि अमान्यता प्राप्त राजनैतिक दलानि सूच्याः अपसारितानि। ये ऊनविंशत्यधिकद्विसहस्राद् षड्वर्षाणि यावत् एकस्यापि निर्वाचनस्य आवश्यकाः नियमाः न पूरिताः सन्ति। एतेषां दलानां कार्यालयानि अपि भौतिकरूपेण कुत्रापि न सन्ति। एतानि चतुस्त्रिंशोत्तरत्रिशतं यावत् पञ्जीकृतानि अमान्य राजनैतिकदलानि देशस्य विभिन्नेभ्यः राज्येभ्यः केन्द्रशासितप्रदेशेभ्यश्च सन्ति। सिक्किम प्रशासनेन हर घर तिरंगा इत्यभियानं सोत्साहेन परिपालनाय विस्तृताः पदाक्षेपाः स्वीकृताः। संस्कृति विभागस्य वरिष्ठाधिकारिणः सूचितवन्तः यत् नागरिकेषु प्रायः एकलक्ष राष्ट्रियध्वजाः वितरिताः भविष्यन्ति। संस्कृति विभागः ध्वजाः मण्डल प्रशासनेभ्यः समर्पयिष्यति, येन ते क्षेत्रेषु वितरितुं शक्नुवन्ति। अगस्तमासस्य द्वादशदिनांके गंगटोकनगरस्य एमजी मार्गात् राज्यपालस्य मुख्यमन्त्रिणः च उपस्थितौ तिरंगासभायाः आयोजनं भविष्यति। ब्राजीलदेशस्य राष्ट्रपतिः लुइस इनासियो लुला द सिल्वा ह्यः रूसदेशस्य राष्ट्रपतिना व्लादिमीर पुटिन इत्यनेन सह प्रायः चत्वारिंशत् निमेषान् यावत् भाषितवान् इति ब्राजीलिया नगरस्य राष्ट्रपतिभवनेन उक्तम्। तेनोक्तं यत् पुटिन तस्मै अमेरिका देशेन सह वार्तायाः, युक्रेन देशे युद्ध सम्बद्धानां शान्तिप्रयासानां च विषये सूचितवान्। उदयमानानां अर्थव्यवस्थानां ब्रिक्स समूहे सहकार्यस्य विषयेऽपि चर्चा कृत्वा वर्तमान अन्ताराष्ट्रिय राजनैतिक आर्थिक स्थितेः समीक्षां कृतवन्तौ। बिहार राज्यस्य राजगीरे आयोक्ष्यमाणे एशिया रग्बी अण्डर 20 चैंपियनशिप सप्तम क्रीडायां ह्यः उत्तम प्रदर्शनेन विजयेन च सह भारतीय महिला दलम् उपान्त्य चक्रीय क्रीडायां प्रविष्टम्। प्रथमे द्वन्द्वे कजाकिस्तान देशं पराजित्य भारतीय क्रीडिकाः द्वितीय संघर्षे यूएई दलं पराजितवत्यः। इति वार्ताः।